Kalanidana Bandura Shriyanja Gattu Randara. दशवक्त्र गीतम् यः शम्भुपूजन परम् पठति प्रदोषे तस्य स्थिरां रथगजेन्द्रतुरङ्गयुक्तां लक्ष्मीं सदैव सुमुखीं प्रददाति शम्भुः इति श्रीरावणकृतं शिवताण्डव स्तोत्रं सम्पूर्णम्।